कञ्चित् कालम् उमामहेश भवतः पादारविन्दार्चनैः कञ्चिद्ध्यानसमाधिभिश्चनतिभिः कञ्चित् कथाकर्णनैः कञ्चित् कञ्चिदवीक्षणैश्चनुतिभिः कञ्चिद्दशामी दृशी यः प्राप्नोति मुदा त्वदर्पितमना जीवन् स मुक्तः खलु बाणत्वं वृषभत्वमर्थवपुषा भार्यात्वमार्यापते घोणित्वं सखिता मृदङ्गवहता चेत्यादिरूपं दधौ त्वत्पादे नयनार्पणञ्च कृतवान् त्वत्तेहभागो हरिः पूज्यात् पूज्यतरस्स एव हि न चेत् को वा तदन्यो जननमृतियुतानां सेवया देवतानां न भवति सुखलेश संशयो नास्ति तत्र आजनिम् अमृतरूपं सांवमीशं भजन्ते य इह परमसौख्यं ते धन्या लभते शिव तव परिचर्या सन्निधानाय गौर्या भव मम गुणधुर्यां बुद्धिकन्यां प्रदास्ये सकलभुवनबन्धो सच्चिदानन्दसिन्धो सदय हृदयगेः सर्वदा संवसत्वम् जलधिमथनदक्षो नैव पातालभेदी न च वनमृगयायां नैव लुब्धप्रवीणः अशनकुसुमभूषावस्त्रमुख्यां सपर्या